नमस्सर्वेभ्यः अद्य तिङन्तप्रक्रियायां पञ्चाशः पाठः अक्टोबर् मासस्य अष्टादशः दिनाङ्कः येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् ज्योत्यादिगणस्य धातूनां रूपसिद्धिः अधीयमाना अस्ति तत्रादौ पुनरावर्तनं कुर्मः ज्योत्यादिगणः धातुपाठे तृतीयः गणः तस्य विकरणः औत्सर्गिकः शप् कर्तरि शप् इत्यनेन शप् भवति ज्योत्यादिभ्यश्लुः इत्यनेन स च लुप्यते लुप्ते श्लौ इत्यनेन धातोः द्वित्वं भवति तत्र द्वित्वप्रकरणे कानिचन सूत्राणि अधीतानि सामान्यसूत्राणि एकाचो द्वे प्रथमस्य यत्र यत्र द्वित्वं विधीयते तत्र प्रथमस्य एकाचः द्वित्वं भवति सो द फस्ट् एकाच् विल् बि डबल्ड् सो वि आल्सो डिफैन्ड् एन् एकाच् सो एन् एकाच् इस् डिफैन्ड् एस् एनी अच् along with all consonants which precede it and which follow it till it meets the next ach on either side. Okay. So that is the definition of ekach, and that ekach, that is the ach along with its family of consonants will be doubled. Ajadair dvitiyasya yatra angam anekach bhavati ajadishcha bhavati tatra द्वितीयस्य एकाचः द्वित्वम् यदि हलादिः तर्हि प्रथमस्य एकाचः यदि अजादिः तर्हि द्वितीयस्य एकाचः द्वित्वम् भवति नन्द्रासंयोगादयः संयोगस्य आदौ विद्यमानानां नकारदकाररेफानां द्वित्वम् न भवति कुत्रापि न भवति सो इट्स् जनरल् परिभाषा संज्ञाद्वयम् उपयुक्तं भवति द्वित्वप्रकरणे पूर्वोऽभ्यासः द्वित्वे कृते पूर्वम् अभ्याससंज्ञं भवति सो वट् एवर् इस् रिपीटेड् द फस्ट् पार्ट् आफ् इट् इस् काल्ड् अभ्यास उभे अभ्यस्तम् उभयोः समुदितयोः अभ्यस्तसंज्ञा सो बोत् आफ् देम् टुगेदर् इस् काल्ड् अभ्यस्त सो अभ्यास एण्ड् अभ्यस्त आर् टु संज्ञास् विच् वि यूस् आफ्टर् वि डु द्वित्व तत्र द्वित्वे कृते प्रमुखं कार्यं भवति अभ्यासकार्यं सो जनरली वेन् वि डू दिस् वर्णद्वित्व द फस्ट् पार्ट् गेट्स् चेञ्ज्ड् सो द अभ्यास गेट्स् मोडिफैड् तत्र सामान्यानि अभ्यासकार्याणि सर्वत्र प्रवर्तमानानि हलादिशेषः अभ्यासस्य आदिः हल् शिष्यते अन्ये हलः लुप्यन्ते सो द फस्ट् हल् द हल् विच् इस् अट् द बिगिनिङ्ग् of the abhyasa remains, all other consonants are deleted. Se jan, dvitve krate jan jan, tatra naka adhi jakaraha shishyate, nakaraha lupyate jajan. Hraswaha abhyasasya hraswaha bhavati. So any vowel in the abhyasa gets shortened. Kuhoshchuhu, abhyase kavargasya hakarasya cha, chavargadeshaha bhavati. Kavargasya चवर्गाक्षरः क्रमशः भवति हकारस्य तु झकारः चतुर्थाक्षरः आदेशः भवति अभ्यासे चर्च अभ्यासे विद्यमानानां झलां चरः जशश्च भवन्ति सो द फोर्थ् लेटर् इस् रिप्लेस्ड् बै द थर्ड् सेकेण्ड् लेटर् इस् रिप्लेस्ड् बै द फस्ट् झकारस्य स्थाने जकारः भकारस्य स्थाने वकारः एवं खकारस्य स्थाने ककारः एवं भवति उरत् अभ्यासे ऋकारस्य अकारादेशः भवति उरण्परः इत्यनेन रपरः सो दीस् फैव् आर् द कामन् अभ्यासकार्यास् ततः श्लौ विशिष्य कानिचन अभ्यासकार्याणि विहितानि निजां त्रयाणां गुणश्लौ इत्यनेन धातुपाठे ज्योत्यादिगणस्य पाठे त्रयः धातवः सन्ति निजिर् विजिर् विश्ल इति तेषां त्रयाणाम् अभ्यासस्य ಗುಣ ವಿಧೀಯತೆ. ನಿಜ ದ್ವಿತ್ವೇ ಕೃತೆ ನಿಜ ತತ್ರ ಅಭ್ಯಾಸಸ್ಯ ಗುಣೇ ಇಕಾರಸ್ಯ ಏಕಾರಃ ನೇ ನಿಜ ಏವಂ ವಿಜ್ ಇತ್ಯಸ್ಯ ವೇ ವಿಜ್ ವಿಷ್ ಇತ್ಯಸ್ಯ ವೇ ವಿಷ್. ತ್ರಯಾಣಾಂ ಧಾತೂನಾಂ ಅಭ್ಯಾಸಸ್ಯ ಗುಣಃ ಭವತಿ ಶ್ಲೌ ಪರೆ. ಭೃಣ್ಯಾಂ ಇತ್ ಭೃಣ್ಯ ಮಾ ಓಹಾಗ್ ಇತಿ ತ್ರಯಃ ಧಾತವಃ ತೇಷಾಂ ಅಭ್ಯಾಸಸ್ಯ ಇಕಾರಾದೇಶಃ ಭವತಿ. ಭೃ ತತ್ರ ಉರತ್ ಇತ್ಯನೇನ ಅತ್ವೇಕತೆ ಭರ್ ಭೃ ಹಲಾದಿಶೇಷಃ ಭಭೃ. ಇದಾನೀಂ ಭೃಯಾಮಿತ್ ಇತ್ಯನೇನ ಇತ್ವೇ ಭಿ ಭೃ ಅಭ್ಯಾಸೆ ಚರ್ಚಾ ಇತ್ಯನೇನ ಜಷ್ಟ್ವೇ ಬಿಭೃ ಭವತಿ. ಏವಂ ಮಾ ಇತ್ಯಸ್ಯ ಮೀಮಾ ಹಾ ಇತ್ಯಸ್ಯ ಜಿಹಾ. ಸೊ ಅಭ್ಯಾಸಸ್ಯ ಇತ್ವಂ ಭವತಿ ಭೃಣ್ಯಾಮಿತ್ ಇತಿ ಸೂತ್ರೇಣ. ಅರ್ತಿಪಿಪರ್ತ್ಯೋಶ್ಚ ಇತ್ಯನೇನ ಅನಯೋಃ ಧಾತೋಃ ಅರ್ತಿ ಇತಿ ಋ ಧಾತುಃ ಪಿಪರ್ತಿ ಇತಿ ಪೃ ಧಾತುಃ ಉಭಯೋಃ ಅಭ್ಯಾಸಸ್ಯ ಇವರ್ಣಾದೇಶಃ ಇರ್ ಪಿಪೃ ಇತಿ ಭವತಿ. ಬಹುಲಂ ಛಂದಸಿ ಜುಹೋತ್ಯಾದಿಗಣೇ ಏಕಾದಶ ಛಾಂದಸಾಃ ಧಾತವಃ ನಿರ್ದಿಷ್ಟಾಃ ತೇಷು ಬಹುಲಂ ಇತ್ವಂ ಭವತಿ ಅಭ್ಯಾಸಸ್ಯ ಕೇಶಾಂಚನ ಭವತಿ ಕೇಶಾಂಚನ ನ ಭವತಿ ಇತ್ಯರ್ಥ. ಗಾ ಇತ್ಯಸ್ಯ ಜಿಗಾ ಘೃ ಇತ್ಯಸ್ಯ ಜಿಘೃ ಹೃ ಇತ್ಯಸ್ಯ ಜಿಹೃ ಏತೇಷಾಂ ತ್ರಯಾಣಾಂ ಛಾಂದಸಾನಾಂ ಧಾತೂನಾಂ ಇತ್ವಂ ಭವತಿ. ಸೋ ಏತಾನಿ ಶ್ಲೌ ವಿಶಿಷ್ಯ ವಿಹಿತಾನಿ ಅಭ್ಯಾಸ ಕಾರ್ಯಾಣಿ. ಇದಾನೀ ಪ್ರತ್ಯಯಃ ಅಭ್ಯಸ್ತಂಗೇಭ್ಯಃ ಪ್ರತ್ಯಯಃ ಅಪಿ ದೃಷ್ಟಾಃ. ತತ್ರ ಕೇನಚಿತ್ ಪೃಷ್ಟಂ ಕಃ ಭೇದಃ. ಇದಾನೀ ಪ್ರತ್ಯಯಾನಾಂ ಗಣತ್ರಯಂ ಅಸ್ತಿ. ಸೊ ವಿ ಹ್ಯಾವ್ ತ್ರೀ ಸೆಟ್ಸ್ ಆಫ್ ಪ್ರತ್ಯಯಸ್. ದ ಫಸ್ಟ್ ಸೆಟ್ ಇಸ್ ಫಾರ್ ಅದಂತ ಅಂಗಸ್, ದ ಸೆಕೆಂಡ್ ಸೆಟ್ ಇಸ್ ಫಾರ್ ಅನದಂತ ಅಂಗಸ್, ಅಂಡ್ ದ ಥರ್ಡ್ ಸೆಟ್ ಇಸ್ ಫಾರ್ ಅಭ್ಯಸ್ತ ಅಂಗಸ್. ಸೊ ತೇಷಾಂ ಕಃ ಭೇದಃ ಇತಿ ಪಶ್ಯಾಮಃ. ಆದೌ ಅದಂತೇಭ್ಯಃ ಅಂಗೇಭ್ಯಃ ಏತೇ ಪ್ರತ್ಯಯಃ ಭವಂತಿ. ಸೊ ಯು ಹ್ಯಾವ್ ತಿ ಫ್ರಮ್ ತಿಪ್ ತಸ್ ವಿಕಂಸಃ ಅಂತಿ ಛೋಂತಃ ಸೀಥಃ ಥ ಮೀವಃ ಮಹ. ಆತ್ಮನೇಪದೇಶು ಪಿತಾತ್ಮನೇಪದಾನಾಂ ಟೇರೆ ಇತ್ಯನೇನ ಸರ್ವತ್ರ ಏತ್ವಂ ಭವತಿ. ಆತೋಂಗಿತಃ ಇತ್ಯನೇನ ಆತೆ ಇತ್ಯಸ್ಯ ಸ್ಥಾನೆ ಇಯ್ ತೆ ಲೋಪೋ ವ್ಯೋರ್ವಲಿ ಇತಿ ಅಕಾರಸ್ಯ ಲೋಪೆ ಇತೆ. ಅತಃ ತೆ ಇತೆ ಅಂತೆ ಸೆ ಇಥೆ ದ್ವೆ ಏವ ಹೇಮಹೆ. ಲೋಟ್ಲಕಾರೆ ಏರುಹು ಇತ್ಯನೇನ ಇಕಾರಸ್ಯ ಸ್ಥಾನೆ ಉಕಾರಾದೇಶಃ. ತುಹ್ಯೋಸ್ತಾತಂಗಾಶಿಷ್ಯನ್ಯತರಸ್ಯಾಂ ಲೋಟೋ ಲಂಗ್ವತ್ ಲಂಗ್ವದತಿದೇಶಃ ತೇನ ತಸ್ಥಸ್ಥಮಿಪಾಂ ತಾಂ ತಂ ತಾಮಃ. ಝೋಂತಃ ಏರುಹ ಅತೋ ಹೇಹೆ ಇತ್ಯನೇನ ಹೇಹೆ ಲುಕ್ ಭವತಿ. ಆನಿ ಮೇರ್ನಿಹಿ ಇತಿ ನಿ ಆದೇಶಃ. ಆಡುತ್ತಮಸ್ಯ ಪಿಚ್ಚ ಇತ್ಯನೇನ ಆಡಾಗಮಃ. ವಸ್ಮಸೋಹು ನಿತ್ಯಂ ನಿತಃ ಇತಿ ಸಕಾರ ಲೋಪಃ. ಸೊ ಯು ಹ್ಯಾವ್ ಆನಿ ಆವ ಆಮ. ಆತ್ಮನೇಪದೇಶು ಪುನಃ ಆಮೇತಃ ಇತ್ಯನೇನ ಆಮ್ ಆದೇಶಃ ಏಕಾರಸ್ಯ. ಪಿತಾತ್ಮನೇಪದಾನಾಂ ಟೇರೆ ಇತ್ಯನೇನ ಏತ್ವೇ ಕೃತೆ ಆಮೇತಃ. ಅತಃ ತಾಂ ಇತಾಂ ಅಂತಾಂ ಸವಾಭ್ಯಾಂ ವಾಮೌ. ಸಕಾರಾದುತ್ತರಸ್ಯ ಏಕಾರಸ್ಯ ವಕಾರಃ. ಅತಃ ಸ್ವ ಇಥಾಂ ಧುವಂ ಐ ಏತ ಐ ಇತಿ ಉತ್ತಮ ಪುರುಷೇ ಏಕಾರಸ್ಯ ಐಕಾರಾದೇಶಃ ಆಡಾಗಮಃ. ಐ ಆವಹೈ ಆಮಹೈ. ಲಂಗ್ಲಕಾರೇ ನಿತ್ಯಂ ಯತಃ ಇತಿ ಸಕಾರಲೋಪಃ. ಇತಶ್ಚ ಇತಿ ಇಕಾರಲೋಪಃ. ತಸ್ಥಸ್ಥಮಿಪಾಂ ತಾಂ ತಂ ತಾಮಃ. ಅಂತಿ ಇತ್ಯತ್ರಾಪಿ ಇಕಾರಲೋಪಃ ಸಂಯೋಗಾಂತಸ್ಯ ಲೋಪಃ ಅನ್ ಭವತಿ. ಆತ್ಮನೇಪದೇ ಕೋಪಿ ವಿಶೇಷಃ ನಾಸ್ತಿ ಎಕ್ಸೆಪ್ಟ್ ಆತೋಂಗಿತಃ ನಥಿಂಗ್ ಎಲ್ಸ್ ಅಪ್ಲೈಸ್. ಸೊ ತಾತಾಂ ತಾತಾಂ ಝಥಾ ಸಾಥಾಂ ಸ್ವಂ ವಿದ್ವಹಿ ಮಹಿಂ. So it's mostly the same. You have jhontaha and atomitaha. Rest are all the same as the original pratyayas. Vithiling lakare yasut bhavati. Yasut parasmai padeshura udatomitcha. Suptitoho iti sudagamaha. Lingasalopoonantyasya ityanena ubhayohu sakarayohu lopaha. Atoyeyaha ityanena avarna antar aduntaranga atparasya ya ityasya iya ityadeshaha. ತಸ್ಯ ಲೋಪೋ ವ್ಯೋರ್ವಲಿ ಇತಿ ಅಕಾರ ಲೋಪೆ ಇತ್ ಇತಾಂ ಇಯುಹು ಇತ್ಯಾದಿ ಪ್ರತ್ಯಯಃ ಭವಂತಿ. ಆತ್ಮನೇಪದೇಶು ಲಿಂಗಸ್ಸೀಯುಟು ಇತಿ ಸೀಯುಡಾಗಮಃ ಸುಡಾಗಮಃ ಉಭಯೋ ಸಕಾರ ಲೋಪ ಪ್ರೀತಯ್ಯಾತಾಂ ಈರನ್. ಏತೆ ಅದಂತಾಂಗೇಭ್ಯ ಪ್ರತ್ಯಯ. ಯದಾ ಅನದಂತೇಷು ಅಂಗೇಷು ಗಚ್ಚಾಮಃ ತದಾ ಆತೋಂಗಿತಃ ಇತ್ಯಸ್ಯ ಪ್ರವೃತ್ತಿಃ ನ ಭವತಿ. ವಿ ವಿಲ್ ನಾಟ್ ಅಪ್ಲೈ ಆತೋಂಗಿತಃ ಬಿಕಾಸ್ ಇಟ್ ಇಸ್ ನಾಟ್ ಅನ್ ಅದಂತ ಅಂಗ. ಅದಂತಾರಂಗಾತ್ ಪರಸ್ಯ ಆಕಾರಸ್ಯ ಇಯಾದೇಶ ವಿಧೀಯತೆ. ಅತ್ರ ತು ಅದಂತವಂಗಂ ನಾಸ್ತಿ ಇತ್ಯತಃ ಆತೋಂಗಿತಃ ಇತ್ಯಸ್ಯ ಪ್ರವೃತ್ತಿಃ ನ ಭವತಿ. ಸೊ ಆಲ್ ತ್ರೀ ಕೇಸಸ್ ವಿ ಡೋಂಟ್ ಅಪ್ಲೈ ಆತೋಂಗಿತಃ. ಕಿಂಚ ಆತ್ಮನೇಪದೇಶು ಆತ್ಮನೇಪದೇಶು ಅನತಃ ಆತ್ಮನೇಪದೇಶು ಅನದಂತಾರಂಗಾತ್ ಪರಸ್ಯ ಅತ್ ಇತ್ಯಾದೇಶ ಭವತಿ. ಲೋಟ್ಲಕಾರೆ ಹಿ ಇತ್ಯಸ್ಯ ಲೋಪಃ ನ ಭವತಿ. ಅತೋ ಹೇಹೆ ಅದಂತಾರಂಗಾತ್ ಪರಸ್ಯ ಹೇಹೆ ಲುಕ್. ಅತಃ ಅತ್ರ ಹೇಹೆ ಲುಕ್ ನ ಭವತಿ. ವಿಧಿಲಿಂಗ್ಲಕಾರೇಪಿ ಅತೋ ಯೇಯಃ ಇತ್ಯನೇನ ವಿಹಿತಃ ಯಾಸುಟಃ ಇಯಾದೇಶಃ ನ ಭವತಿ. ಸೊ ಅತೋ ಯೇಯಃ ಅಂಡ್ ಅತೋ ಯಿತಃ ಕಮ್ ಇನ್ ಅ ಸೀರೀಸ್. ಸೊ ಅತಃ ಇಸ್ ಅನುವೃತ್ತಿ. ಸೊ ಬೋತ್ ಆಫ್ ದೆಮ್ ದ ಇಯಾದೇಶ ಡಸ್ ನಾಟ್ ಅಪ್ಲೈ. ಹಿ ಡಸ್ ನಾಟ್ ಗೆಟ್ ಡಿಲೀಟೆಡ್. ಅಂಡ್ ಇನ್ ಆತ್ಮನೇಪದ ಇನ್ಸ್ಟೆಡ್ ಆಫ್ ಅಂತಾದೇಶ ವಿ ಹ್ಯಾವ್ ಅತ ಅತ್ ಆದೇಶ. So these are the differences between the Adanta Anga and Anadanta Anga. Now, starting from the Anadanta Anga, we move to the Pratyayas of the Abhyasta Anga. So between this set, the second set and the third set, there are only two differences. One is, in the Parasmaipada also we have the Adadesha. So, Purvatra Anadantesha Angeshu, Atmanepadeshweva, Atmanepadeshvanataha ityanena Adadeshaha, Atra ಅದಭ್ಯಸ್ತಾತ್ ಇತ್ಯನೇನ ಪರಸ್ಮೈ ಪದೇ ಅಪಿ ಅಂತಾದೇಶಂ ಬಾಧಿತ್ವಾ ಅತ್ ಇತ್ಯಾದೇಶಃ ಭವತಿ. ಸೊ ಯು ಹ್ಯಾವ್ ಅತಿ ಅಂಡ್ ಅತು. ಸೊ ದಿಸ್ ಇಸ್ ಒನ್ ಡಿಫರೆನ್ಸ್. ಲಂಗ್ಲಕಾರೆ ಝಿ ಇತ್ಯಸ್ಯ ಸ್ಥಾನೆ ಸಿಜಭ್ಯಸ್ತ ವಿಧಿಭ್ಯಶ್ಚ ಇತ್ಯನೇನ ಉತ್ಸ ಜುಸ್ ಆದೇಶಃ ಭವತಿ. ಸೊ ಇನ್ ಜುಸ್ ಯು ಹ್ಯಾವ್ ಉಸ್ ರಿಮೈನಿಂಗ್, ಋತ್ವ ವಿಸರ್ಗ ಯು ಹ್ಯಾವ್ ಉಹು. So between the second set, anadantaangebhyah pratyayah and abhyastaangebhyah pratyayah, we have only these two differences. Okay. So if you compare the adantaanga and abhyastaanga, so along with these, you also have the absence of iyadesha. Iyadesha na bhavati, hehe lukh na bhavati, atmane pareshvanataha ityanena at ityadesha bhavati. So they are also there. Okay. So, any questions with the pratyayas?
Yes, Swamiji, you said something about ato nityaha didn't apply when you have an adanta pratyaya.
Yes.
Adanta. And I wasn't sure. Just, if you could just remind me of what that is, because somehow my mind didn't catch that.
Ato gintaha says, avaranant adanta rangat parasya nitsambandhinaha akarasya iyadesha hasyat. So only when Anga is Adanta, the A is replaced by I. So you have Ite and Ithe. So that will not apply for either Anadantanga or Abhyastanga, because Abhyastangas are also not Adanta. So they are Anadanta.
Good, thank you.
Any Prashna? Huh? So Idin Prashna Santi Tarni Danim Rupa Siddhihi. ಇದಾನೀಂ ಅಂಗಂ ದ್ವಿತ್ವೇ ಕೃತೇ ಕಿಂ ಅಂಗಂ ಭವತಿ ಇತಿ ಸಿದ್ಧಂ, ಕಃ ಪ್ರತ್ಯಯಃ ಇತ್ಯಪಿ ಸಿದ್ಧಂ, ಕಥಂ ತೇಷಾಂ ಯೋಜನಂ ಇತಿ ದ್ರಷ್ಟವ್ಯಂ. ಅಸ್ತಿ. ಅತಃ ಆದೌ ಜ್ಯೋತ್ಯಾದಿಗಣೆ ಅದಂತಧಾತವಃ ಹಲಂತಧಾತವಃ ಇತಿ ವರ್ಗೀಕರಣಂ ಕೃತಂ. ಸೊ ವಿ ಹ್ಯಾವ್ in the last class we split the dhatus into ajantas and halantas. So even in ajantas we take them letter by letter, because the prakriya is different for the different dhatus. So ye akarantah dhatavah, ete akarantah dhatavah, shat dhatavah santi, mang dhatuh, mima dvitve krate, ma bhriyam it ittenena itve mima. ಓಹಾಂಗ್ ಗತೌ ಇತಿ ಧಾತು. ಹಾ ಶ್ಲೌ ಇತಿ ದ್ವಿತ್ವೇ ಹಾ ಹಾ, ಹರಸ್ವ ಹ ಹಾ, ಕುಹೋಶ್ಚುಹು ಝ ಹಾ, ಭೃಣ್ಯಾಂ ಇತ್ ಇತ್ಯನೇನ ಝಿ ಹಾ, ಅಭ್ಯಾಸೇ ಚರ್ಚ ಇತಿ ಚರ್ತ್ವೇ ಜಿ ಹಾ. ಗಾ ಇತಿ ಧಾತು. ಗಾ ಗಾ, ಹ್ರಸ್ವ ಗ ಗಾ, बहुलं छन्दसि इत्यनेन इत् गि ग कुहोष्टुः इत्यनेन चित्वे झिगा ओहाक् त्यागे इति धातुः हा पुनः द्वित्वे ह्रस्वे हः अभ्या कुहोष्टुः इति चुत्वे झ ह अभ्यासे चर्चा इति चर्चे ज ह सो इवन दो यू हैव टू हा धातुस वन इज गत्यर्थक एंड अदर इज त्यागार्थक वन इज जिहाति इज गच्छति जहाति इज टू त्यजति इत्यर्थः पुनः दा ध इति धातुद्वयम् दुदाई दाने दुधाई धारण पोषणयोः सो दा जित्वे कृते ह्रस्वे ददा दधा इति अङ्गम् सो आल् दीस् आर् आकारान्त अङ्गास् एतेषां कथं रूपसिद्धिः इति पश्यामः सो द फस्ट् त्री बिलाङ्ग् टु वन् सेट् द फोर्त् इस् डिफरेण्ट् फिफ्त् अण्ड् सिक्स्त् आर् अगेन् डिफरेण्ट् ओके सो इफ् यु रिमेम्बर् वाट् वी डिड् इन् द क्रियादिगण क्रियादिगणे धातूनां रूपसिद्धिः सो रिमेम्बर् देर् आल्सो द अङ्ग इस् आकारान्त बिकास् यु हाव् द श्ना क्रियादिभ्यः श्ना सो यु हाव् क्रीणा मीना एट्सेट्रा सो द आकारान्तम् अङ्गम् तत्र किं सूत्रद्वयस्य प्रवृत्तिः आसीत् श्नाभ्यस्तयोरातः सो श्नाप्रत्ययान्तस्य अभ्यस्तस्य च श्ना अभ्यस्तयोः आतः नाम आकारस्य लोपः स्यात् किमिति सार्वधातुके सो देर् वि यूस्ड् श्नाप्रत्ययान्तस्य अत्र तु अभ्यस्तस्य अङ्गस्य सिन्स् द अङ्ग इस् अभ्यस्त आकारस्य लोपः भवति किमिति सार्वधातुके विच् इस् अपित् सार्वधातुक वेन् एवर् फालोड् बै एन् अपित् सार्वधातुक द आकार इस् डिलीटेड् पुनश्च ई हल् यघोः हलि ई हलादौ किमिति सार्वधातुके श्नाभ्यस्तयोः इति अनुवर्तते ईत्वं भवति सो इफ् इट् इस् हलादि वि यूस् ईत्वा इफ् इट् इस् अजादि इट् इस् लोप सो तदेव कृतं क्रीणाति क्रीणीतः क्रीणन्ति सो क्रीणातः ई हल्यभोः इत्यनेन ईत्वे क्रीणीतः क्रीणान्ति श्नाभ्यस्तयोरातः इति आल्लोपे क्रीण अन्ति क्रीणन्ति अत्रापि तथैव भवति सो हलादौ पिति किमपि कार्यं नास्ति क्रीणाति एवं मिमाति यदि ति अस्ति जिगाति किमपि कार्यं न भवति अजादौ पिति सन्धिः आकारस्य अन्येन अकारेण वा ऐकारेण वा सन्धिः हलादौ अपिति ईहल्यघोः इत्यनेन ईत्वम् अजादौ अपिति श्नाभ्यस्तयोरातः इत्यनेन आकारस्य लोपः इत्येतानि कार्याणि सो इफ् यु लुक् एट् दिस् सो द ग्रीन् वन्स् रिमेम्बर् द ओल्ड् टेबल्स् सो हलादौ अपिति किमपि कार्यं नास्ति अजादौ इति अच् सन्धिः भवति यथा जिगा आनि जिगानि मिमा ऐ मिमै इति अच्सन्धिः भवति यत्र नीलवर्णेन निर्दिष्टं तत्र श्नाभ्यस्तयोरातः इत्यनेन आकारः लुप्यते सो यु हाव् मिमा आते आकारस्य लोपे मिमाते मिमते मिमाथे सो अन्यत्र द वन्स् विच् आर् अन्शेडेड् तत्र किमिति सार्वधातुके हलादौ ईहल्यघोः इत्यनेन ईत्वम् सो यु हाव् मिमीते मिमीते सो जिगीतः एवं कार्याणि भवन्ति सो लेट्स् लुक् एट् द धातूस् मिमा अण्ड् जिहा माङ् माने तथा ओहाङ् त्यागे इति धातुद्वयम् आत्मनेपदी धातु आत्मनेपदिनौ धातु बिकास् दे आर् बोत् नित् अनुदात्तञ्च आत्मनेपदम् इत्यनेन आत्मनेपदप्रत्ययाः एव विधीयन्ते सो दिस् दट् इस् वै एव् रिमूव् द परस्मैपदप्रत्ययस् यु हाव् द आत्मनेपदप्रत्ययस् सो तत्र हलादि पित् नास्ति सो इन् आत्मनेपदस् देर् इस् नो हलादि पित् प्रत्यय अजादि पित् ऐ आवहै आमहै आडुत्तमस्य पिच्च इत्यनेन पित्त्वं तत्र सन्धिः भवति मिमा ऐ वृद्धिरेचि इत्यनेन वृद्धौ मिमै मिमा आवहै मिमावहै मिमामहै एवं जिहै जिहावहै जिहामहै पुनः हलादौ अपिति हलादौ ईहल्यघोः इत्यनेन ईत्वं भवति सो मिमीते मिमीषे मिमीध्वे मिमीवहे मिमीमहे इत्यादि रूपाणि. अजादौ तु श्नाभ्यस्तयोरातः इत्यनेन आल्लोपे मिमु जिह् इति भवति. सो मिमु आते मिमाते मिम अते मिम आते मिम ए मिमीत इत्यादि रूपाणि. सो दिस इज फॉर द धातुस मा एंड ओहा. सरगोपन महोदय प्रश्न अस्ति. Do you have a question? I think you have to unmute yourself. I cannot hear you. Okay. So anybody wants to go and tell the forms? Himanshu, morning.
Thanks. Me, me te. Me ma te. Me ma. Me, me se. Me a te. Me, me dwe. Me, mai.
Me me. Me mu e. Me me.
Me me. Me me abun, yeah. Me 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 wahe. Me me mahe. Me 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 tam. Me ma tam. Me wa tam. Me me swa.
There is shatva, adesha pratyayoga.
Mi mi shwa, mi ma tham, mi mi dhvam, mi mai, mi ma vahai, mi ma mahai, mi mi ta, mi ma tham.
Amimita. Lang.
Amimita. Amimata. Amimata. Amimita. Amimita. Amimata. Amimidvam. Amimi. Ami mi wahi, ami mi mahi, mi mi ta, mi mi yatam, mi mi ran, mi mi taha, mi mi yatam, mi mi dham, mi mi ya. Me, me, wahi, me, me, mahi.
Yes, Paul, you want to try with the jiha, the ohang gatav.
Okay. Jihite. Jihate. Jihate. Jihise.
Jihise.
Jihise. I was trying to figure out. It is a she. Okay. Jihise. Jihate. Jihe. Jihivahe. Jihim. Jihitam, Jihatam, 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 Jihishva, Jihat, Tom. Jihai. Jihavahai. Jihamahai. Ajihita. Ajihatam. Ajihata.
Ajihata.
Ajihata. Ajihata. Ajihitaha. Ajihitaha. Ajihatam. Ajihitam. Ajihi. Ajihivahi. Ajihimahi. Jihita. Jihitatam. Jihiran. Jihita. Jihiyatam. Jihidvam. Jihiya. Jihivahi. Jihimahi.
Samyak. So, evam mima jiha. गा धातुः अस्ति गास्तुतौ इति सः परस्मैपदी अतः परस्मैपदेषु परस्मैपदप्रत्ययाः एव योज्यन्ते तत्र हलादौ पिति किमपि न भवति जिगाति जिगासि जिगामि इति अजादि पित् एक एव प्रत्ययः अम् जिगा अम् अमिपूर्वः इत्यनेन पूर्वरूपे अजिगाम् भवति नीलवर्णे अजादि अपित् प्रत्ययः तत्र श्नाभ्यस्तयोरातः इत्यनेन अल्लोपे जिग् जिगति जिगतु अजिगुः अन्येषु हलादि पित्प्रत्ययेषु ईहल्यघो अपित् प्रत्ययेषु ईहल्यघोः इति त्वं भवति जिगीतः जिगीथः जिगीथ इत्यादि एनिबडी वांट टु से द फॉर्म्स ऑफ दिस धातु सुधाकर उन्होंने जिगाति जिगाति
जिगाति
अ बिट लाउडली प्लीज आई कैन नॉट हियर और मे बी माय यस हां
इज ओके नाउ
या या इट इज आई थिंक माय वॉल्यूम वाज लो
जिगाति जिगीतः जिगति जिगाषि
जिगासि सो ओन्ली इफ देयर इज इकार इन कवर्गाभ्याम परस्य षत्वम् सो इफ इट इज अकार देयर इज नो षत्व
जिगाति जिगीतः जिगीतः जिगामि जिगीवः जिगीमः जिगातु जिगता
जिगीतात्
जिगीतात् जिगीताम् जिगतु जिगीहि जिगीतात् जिगीतम् जिगीता जिगीयानि
जिगानि Sorry, this should be green. It's a mistake on mine. So this should all be light green because these are pitta pratyas. So it is jiga ani jigani.
Jigava jigama. Langlakare. Jiga ajigat. Ajigitam. Ajiguhu. अजिगाः अजिगीतम् अजिगीता अजिगाम् अजिगीव अजिगीम अस्मत्पदेषु जिगीयात् जिगीयाताम् जिगीयुः जिगीयाः जिगीयाताम् जिगीयाता जिगीयाम् जिगीयाव जिगीयाम
सम्यक् धन्यवादः सो ऑल दीज थ्री they are of the same kind. So I just those are pit pratyas. So the next dhatu, akarantaha dhatu asti, ha dhatu, ohak tyage iti dhatu, tasya vishishya sutra trayam asti. So if you look at the sutra patha, so jahatehe ityarabhya, sutra trayam, jahateshcha, आचहौ लोपोई इति सूत्रत्रयं केवलस्य तस्य धातोः विषये जहातेः जहाति इत्यनेन हा धातुः उच्यते तस्य विषये उच्यते. सो जहातेश्च इत्यत्र इद्दरिद्यस्य इत्यतः इत् इति अनुवर्तते हलि ईहल्यघोः. सो इट् इस् इन् द सेम् सीरीस्. सो हलादौ किङिति सार्वधातुके इत् आदेशः भवति. सो इन्स्टेड् आफ् ई वि हेव् इ as the adesha, anyatarasyam iti anuvartate. Okay. Jahatescha. So, jahatehe cha iti chedaha, hali iti anuvartate, ihalyaghoho ityataha, it, iddaridrasya ityataha, it iti bhyonyatarasyam ityataha, anyatarasyam iti, king iti sarvadhatuke is the anuvarti which is going on in the whole series of sutras. Angadhikaraha asiddhavadatrabhat. So, jahateh angasya it vikalpena syat haladau kimiti sarvadhatuke. So, the previous case, wherever we used to apply e halyaghoho, we also have it optionally. So, there are two forms. One with hrasva ikara and the other is dirgha ikara. So, pakshe e halyaghoho ityanena e adesha bhavati. So, jahataha. So, ayam haladhihi apit sarvadhatukaha. अतः तस्मिन् परे इत् जहातेश्च इत्यनेन इदादेशे कृते जहितः ईहल्यघोः इत्यनेन ई आदेशे कृते जहीतः इति रूपद्वयं भवति. जहितः जहीतः जहितः जहीतः जहिवः जहीवः इति रूपद्वयम्. आच हौ सूत्रार्थः स्पष्टः. हौ परे हि इत्यस्मिन् परे आ च सो आकारः अपि आदेशः भवति. यु ऑलरेडी हैव टू फॉर्म्स, वन विथ ई एंड अदर विथ ई. आ च सो यु आल्सो हैव एन आकार आदेश फॉर द अंग. सो आचहौ जहातेः इत्यनुवर्तते अंगस्य असिद्धवदत्राभात्. जहातेः अंगस्य हौ परे आकार आदेशः स्यात्. च इत्युच्यते इत् ईत् च. सो यु हैव द ई E and A. Saha kim kim rupam bhavati. Jahahi, jahihi, jahihi. Iti rupatrayam bhavati. Hadhatoho, lotlakare, madhyam purushe, ekavachane. So, achahau ittenen atve krute jahahi. So, there is an akara. The akara is replaced by akara. So, then, pakshe ikaraha. Tato api pakshe ikaraha. Ataha rupatrayam. Jahahi, jahihi, जहि. भट्टिकाव्ये एकः श्लोकः अस्ति. सो रावणः सीतां वदति. ऐ थिंक यू मस्ट बी फेमिलियर विद भट्टिकाव्य. इफ यू डू नॉट नो भट्टिकाव्य, इट्स कॉल्ड रावणवधम, बट मोर पॉपुलरली नोन एज भट्टिकाव्य बाय द नेम ऑफ द ऑथर. सो इट इज वन ऑफ द अर्लिएस्ट काव्यस विच वॉज मेंट टू इलस्ट्रेट व्याकरण सूत्र. ओके, इट वॉज नॉट मेंट एज अ काव्य. The story is that of the Ramayana, but the main purpose of Bhattikavya is that he uses it to illustrate the sutras of Pani. It's an amazing kavya. I mean, he takes like one sarga, he gives all kridantas. So if you keep the Ashtadhyayi and you look at the shlokas, so mostly according to the sutra number, he goes on including those forms in the shlokas. So similarly with lakaras or similarly with the other things. So, all prakaranas, I mean, many things he has covered, around 19 sargas. So, where the kavya is for those who enjoy vyakarana and those who have studied vyakarana. Okay, you will find examples of so many rare forms and all it. So, there is one shloka there. So, Ravana is speaking to Sita. Jahihi shokam vaidehi. He Sita, दुःखं त्यज ओहाक् त्यागे इति धातुः जहीहि त्यज इत्यर्थः जहीहि शोकं वैदेहि प्रीतये धेहि मानसं सो धेहि वि विल स्टडी लेटर सो प्रीतये मानसं धेहि सो फिक्स योर माइंड इन हैप्पीनेस रावणे जहीहि द्वेषं रावणस्य विषये द्वेषं त्यज सो जहीहि जहीहि जहाहि प्रमदावनम् सो देन इफ यू लीव द द्वेष टुवर्ड्स रावण प्रमदावनम् जहाहि यू कैन लीव दिस अशोकवन एंड यू कैन कम टू माय अंतःपुर सो इन द सेम श्लोक ही हैज यूज्ड ऑल थ्री फॉर्म्स ऑफ दिस जहीहि जहीहि एंड जहाहि सो जहीहि शोकं वैदेहि प्रीतये धेहि मानसं रावणे जहीहि द्वेषं जहाहि प्रमदावनम् So it's one of the shlokas. Oh, I thought it was 19 sargas. This shloka itself is from the 20th. So probably it has more sargas. I don't remember the number of sargas, but yeah. So as you can see, he has illustrated cleverly all three forms in the same shloka. Okay. So jahatehe visheshadvayam. Prathamam tu jahateshcha ityanena haladau apiti sarvadhatuke. Itvam bhavati. So you have two forms. How to achahau ityanena akaradeshaha api bhavati adaha rupatrayam. Tritiyam sutramasti lopo yi. Yi nama yakaradau pratyaye pare lopaha bhavati. So the akara is deleted. So lopo yi ityanena jahatehe sarvadhatuke ityasti. So angasya siddhavadatra bhat. जहाते हैं अंगस्य लोपः स्यात् यादौ सार्वधातुके यकारादौ सार्वधातुके परे लोपः भवति सो यू हैव जहायात् आकारस्य लोपे जह्यात् त्यजेत् इत्यर्थे जह्यात् इति प्रयोगः सो दिस इज द टेबल फॉर जहाति सो हलादौ पिति सार्वधातुके किमपि न भवति सो यू हैव जहाति जहासि जहामि एटसेट्रा अजादौ पिति सो द सेम मिस्टेक हियर सो अजादौ पिति अच्छन्धिः जहा आनि जहानि जहाव जहाम अजहा अम अमिपूर्वः अजहाम हलादौ अपिति So, haladau apiti, you have this, itvam itvam ubhayam bhavati, ihalyaghoho ityanena ikaradeshaha, jahatescha ityanena ikaradeshaha, jahitaha jahitaha, jahivaha jahivaha, jahitat jahitat, sarvatra rupadvayam. Ajadau apiti sarvadhatuke, shnabhyastayorataha ityanena allopaha, so jahati, 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 jahatu, अजहु हौ परे आचहौ इत्यनेन आकारादेशः इकारादेशः ईकारादेशः अतः जहाहि जहीहि जहिहि इति रूपत्रय यादौ सार्वधातुके लोपो हि इत्यनेन लोपः जह इति भवति जह्यात् जह्यातां जह्युः जह्याः जह्यातं जह्यात इत्यादीनि रूपाणि सो somebody wants to say the forms अमृतवल्ली
जहाति जहीतः जहीतः जहति जहासि जहीतः जहीतः जहीत जहीत जहामि जहीवः जहीवः जहीमः जहीमः जहातु जहीता 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 जही जहीता जहीता जहतु जहाहि जहीहि जहीहि जहीतात जहीतात जहीता जहीता जहीत जहीत जहानि जहाव जहाम जहात अजहात अजी
अजहिताम अजहिताम
अजहिता अजहु अजहाः अजहित अजह अजहीव अजहिव अजहीम अजहिम दह्यात् दह्याताम् दह्युः दह्याः दह्यातम् दह्यात् दह्या दह्याव दह्याम
सम्यक् सो हा ओहा त्यागे इति धातोः एतानि रूपाणि सो बिट्वीन् द मीमा एट्सेट्रा यु हाव् द त्री अडिशनल् कार्यस् जहातेश्च इत्यनेन वैकल्पिकम् इत्त्वं भवति हलादौ अपिति सार्वधातुके आचहौ इत्यनेन हौ परे आकारादेशः अपि भवति लोपो यि इत्यनेन यादौ सार्वधातुके लोपः सो देन् यु हाव् द अदर् टु धातुस् दा एण्ड् धा ते धातु और् तौ धातु विशिष्टौ बिकास् दाधा घ्वदा इति सूत्रमस्ति दाधा घु अदाप् इति प्रथमाविभक्तौ सर्वाणि पदानि एतत् संज्ञा सूत्रं घुसंज्ञां विधत्ते सो दारूपाः धारूपाश्च धातवः घु संज्ञाः स्युः अदाप् दाप् दैपौ वर्जयित्वा सो एनी धातु विच् टेक्स् आन् द फार्म् आफ् दा और् धा gets ghu samnya other than dap and daip. So this sutra is not only for dadati and dadhati, it is also for other dhatus which at any point of time take the form of da or dha. Okay, those dhatus are here. You have dudai, da, dadati. So you have dan, dane iti dhatu. प्रथमगणे अस्ति यच्छति इति रूपं भवति तस्य दो अवखण्डने इति धातुः देङ् इति धातुः द थिङ्ग् वित् दीस् धातुस् इस् वेरेवर् अ धातु इस् एजन्त आदेश उपदेशे अशिति इति सूत्रमस्ति अशिति सो इन् केसेस् वेर् देर् इस् नो शित् देर् इस् आकारादेश फार् द एच् सो दो बिकम्स् दा दे आल्सो बिकम्स् दा So that is why they are also included under this. Dudhai and dhet. So dhe becomes dha. Ataha darupaha dharupashta dhatavaha ghu samyaha bhavanti other than dap and daip. So dap also becomes da, dai also becomes da. But because it says adap, so other than dap and daip, all other dhatus, which take on the form of da and dha are called ghu. Ghu iti esha samya, etesham shannam dhatunam bhavati. Atra ghu samyaya kola bhaha. E hali aghoho. E halyaghoho iti sutre, aghoho iti nishetha hasti. So aghoho ghu samyakanam itvam na bhavati. So for a dhatu which has ghu samya, e halyaghoho will not apply. So everywhere it is shnabhyastayo rataha ityanena allopaha eva bhavati itvam na bhavati iti ekaha visheshaha ghu samyakanam so for both da and dha this applies there is no itva aparam ekam sutram asti hau visheshe karyam asti ghvasoreddha abhyasa lopascha iti sutram ghu asohu iti shashti dvivachanam et प्रथमा एकवचनम् हौ इति सप्तमी एकवचनम् अभ्यासलोपः इति प्रथमैकवचनम् घ्वसोरेद्धावभ्यासलोपश्च सो सन्धि एट् एव्री स्टेप् यु हाव् अङ्गाधिकारः सो घु सम्यकानाम् अस्तेश्च एण्ड् फार् असुधातु हौ परे लोट्लकारे मध्यमपुरुषे एकवचने हौ परे एकारादेशः भवति सो एकार इस् आदेश अलवन्त्यस्य इत्यनेन अन्तादेशः अभ्यासस्य लोपश्च भवति एण्ड् अभ्यास इस् डिलीटेड् So, ghusamyakanam astescha angasya ekaradeshaha abhyasa lopascha. Dada hi ityasti. So, da ityasya ante akarasya sthane ekaradeshaha abhyasaha da. So, the abhyasa here is only the first da. So, that is deleted. And this da becomes de. Ataha dehi iti rupam. Dadatu dattam dadatu dehi. So, dehi ityasya siddhaye etat sutram ghvasoreddha abhyasa lopascha. Evameva dadha hi abhyasasya lopaha dha ityatrakara sekaraha dehi. So, you also see that in case of asudhatu, you have as and dhi. Tatra ekara deshe edhi iti bhavati astustat stam santu edhi iti tatrapi asti. Okay. So, this is about the ghasoreddha vabhyasa lopascha. So, idanim dadatehe rupani. So, it's very easy. Okay. Yeah, so, the, in the apit sarvadhataka, there is no division. Whether it is ajadi or haladi, it is the same karya. Shnabhyastayo rataha ityanena allope dad iti bhavati sarvatra. So, that whole division, distinction between ajadi and haladi is removed. Haladav pitsu kimapi karyam nasti. Ajadishu pitsu atsandhihi bhavati. So, how pare vishishyakaryam ghasoreddha abhyasalopascha ityanena dehi. Okay, everywhere else it's very easy. So, who wants to go for the forms? Mahadevan, hold on.
Dadati, Dada, Dadati, Dadati, Dada, Dada, Dadami, Dada, Dadmaha.
Daddvaha dadmaha. Remember, if there is khar, the dad taha becomes dattaha by kharicha. So, dadati dattaha dadati, dadasi dattaha dattha, dadami daddvaha dadmaha. Okay.
Dattate, dadate, dadate, dattate, Dadathe, Dadbuthe, Dade, Dadbuthe, Dadmahe, Lok Lakaretu, Dadatu, Dadta, Dadatam, dadatam, dadsva, dadatam, dadvam, dade,
dadai,
dadai, dadai, sorry, dadai, 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 adada, adatam, adadu.
Adadaha.
Adattam. Adatta. Adadam.
Adadam.
Adadam. Adadiva. Adadma. Adatta. Adadatam. Adadasa. Adattaha. adadratham adadvam adadi adadvahi adadmani satyat satyakam satyuhu satyah satyatam 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 satyam satyatam satyatam Tadita Tadiyatam Tadiram Tadiha Tadiyatam Tadivam Tadiya Tadivahi Tadimahi
Sada Dhatoh Rupani Evam Sada Dhatoh Rupi Prayen Samanam Bhavati Kintu Tasya Vishaye Punarekam Sutramasti Dadhastathoshcha इति दधः इति षष्ठीकवचनं तथोः इति सप्तमी बहुवचनं सो दिस इज नॉट षष्ठी बहुवचनं दिस इज सप्तमी बहुवचनं सो दधः तथोः च If you have studied the previous sutra, it's a long sutra. Ekacho Bashobhashjashantasya Dhoho iti sutra masti. So it was introduced in the Siddhanta Kaumudi in the Halanta, Halanta Namapada Prakarana. So Ekacho Bashobhashjashantasya Dhoho. Ekachaha Angasya Jashantasya Vashaha Sthane Bhash. So Bhash is Jabagadadash. Jabagadadash. So it is Bhash is the third letter of the Varga. Bhash Jabhany Ghadadash. So Bhash is the fourth letter. So the third letter is replaced by the fourth letter. Jashanta. Dvoho when followed by Sakara or Dhakara. Okay. Dhva. Sakara or Dhvam. Okay. So that is the sutra. So you have those anuvritti, dadhas tathoshcha. So when followed by takara, thakara, sakara or dhva. Okay. So dadhaha, for dadhati, that is you do the dvitva, you have dadha. Tasya jhashantasya, when it is jhashanta, that is shnabhyastayor ataha ityanena allope krute, dadhu iti sthite, dadhu is jhashanta. So when followed by takara, thakara, sakara or dhva, bashaha bhash. The bash, which is the bash, is dakara, the beginning dakara. So it is replaced by bhash. So the corresponding bhash is dhakara. Dviruktasya dhadhatoho jhashantasya bashaha sthane bhash syat tathoho takara thakarayoho sakara dhva shabdayoshcha parayohu. So you have dadha taha. Shnabhyastayorataha ityanena allope dadhu taha. So this is dvirukta, jhashanta, vashahasthane, bhash. So dakara is replaced by dha. So you have dadhu taha. Kharicha ityanena chartve dhattaha. Dadhati dhattaha dadhati. Dadhasi dhat. Taha dhattha evam dadha dhve dvashabde pare ityasti ataha dadha dhve shnabhyastayor antaha ityanena allope dadhu dhve dadhastathoshcha ityanena dhadhu dhve jhalam jash jhashi ityanena jashtve dhadhve so dadhatu becomes dadhve dhadhatu becomes dhadhve okay So, ayam dadhate hai. So, haladav piti kimapi nasti. Dadhati, dadhasi, dadhami. Ajadav piti atsandhihi. Dadhani, dadhava, dadhama. Dadhai, dadhavahai, dadhamahai. Adadham. Haladav piti na chamyatam. Apiti sarvadhatuke. All apit sarvadhatuka. Generally, you have shnabhyastayor ataha. So, it becomes dadhati. Dadhvaha. Dadhmaha. So when it is takara, thakara, sakara or dhva, dadhastathoshchaitanena, dhakara deshaha, prathama dhakarasya. So it either becomes dhad or dhat. So if the following letter is a char, you have karicha. So it becomes dhat. Dhattaha, dhattaha, dhatta, dhatse, ityari. Yadi dhva shabdaha, tarhi dhad dhve. How? Ghasore dha abhyasalopashchaityanena dhe iti bhavati. So it is not de, it will be dhe. So it becomes dhehi. Okay, I'll correct it later. So dhehi dhattat dhattam dhatta dadhani dadhava dadhama. Anybody wants to have a go? At the rupas of dha dhatu. Anybody who has not tried so far?
I'm sorry, Soumya, why do you have to correct the dehi in the...
Yeah, this is not de, it is de. Because you have sadha, hi, the abhyasa, dakara gets deleted, you have dha becomes de, so dehi.
Oh, yeah. Okay.
Meenakshi?
Dhati. Dattaha. Dhadati.
Dadhati.
Dadhati.
The first is
Dhattaha. Dhatta. Dhadami.
Dadhami.
Dadhami. Both are Mahaprana.
No. First is Alpa Prana, second is Mahaprana. Dadhami.
Dadhami. Dadhvaha. Dadhvaha. Dadhate.
No. Dhatte.
Dhatte. Dadhate. Dadhate. Dhatse. Dadhate.
Dadhate.
Dadhate. Dadhve. Dadhve.
Dadhve.
Dadhve.
Both are Mahapranas here because it is dhad dhve. Dhad dhve.
Dadhe. Dadvahe. Dadvahe.
Dadhe. Dadvahe. Dadmahe.
Dadatu. Dattat.
Dattat.
Dat. Dattam. Dadatu. Dehi. Dattat. Dattam. Dhatta. Dadani.
Dadhani.
Dadhani. Dadhava, dadhama. Dattam. Dadhatam. Dattam. Dhatsva. Dadatam. Dadhvam.
Dadhvam.
Dadhvam. Dadvai.
Dadhai.
Dadhai. Dadvahai.
No, dadhavahai.
Oh, dadhavahai, dadhamahai. Adadhat. Adadatam.
No. Adhattam.
Adhattam. Adadduhu.
Adadduhu.
Adadhu. Adadha.
Adadhaha.
Adadhaha. Adad. Adada. adattam
adattam
adatta adadham
adadham
adadham adadhva
அதாத்தம்
அதியாத் தத்யாம் தத்யாவ தத்யாம தத்யாதாம் தத்யரன் தத்யதாஹ தத்யாதாம் தத்யத்வம் தத்ய தத்யவஹி தத்யமஹி
சமயம் एते धाधातोः एतानि धाधातोः धाधातोः रूपाणि ओके सो दा एंड धा आर बोत घु अतः ईहल्यघोः इति विहितं ईत्वं न भवति धाधातोः विशिष्य दधस्तथोश्च इत्यनेन आदेः दकारस्य धकारादेशः क्वचित् भवति ओके सो विद दिस वी हैव फिनिश्ड द आकारान्त धातुस् ऑफ द जुहोत्यादिगण ஆகாராந்த தாதுஷு வர்க்கத்ரயம் பிரதம வர்க்கே மிமா ஜிஹா நோ எஸ் மிமா ஜிஹா அண்ட் ஜிகா தத்ர ஹலாதௌ ஐ மீன் பித்சு பிரத்யேஷு விசேஷ கிமபி ந பவதி அபித்சு அஷ்னாபியஸ்தயோராதஹ ததா ஈஹல்யகோஹ இதி பவதி ஜஹாதி ஹா ஓஹாக்த்யாகே இதி தாதோஹ விஷயே து சூத்ரத்ரயம் விசேஷ விதீயதே ஜஹாதேஷ்ச இத்யனேன ஈஹல்யகோஹ ஜஹாதேஹ இத்ச ஈகா ஈகாரஹ ஈகாரஷ்ச ஆதேஷஹ ஆசஹௌ ஹி இத்யஸ்மின் பரே ஆகாரஹ ஈகாரஹ ஈகாரஹ இதி ரூபத்ரயம் லோபோ யி யகாராதௌ ப்ரத்யயே லோபஹ ஜஹ்யாத் ஜஹ்யாதாம் ஜஹ்யு தா த இத்யேதயோஹ அபரஹ வர்கஹ தத்ர ஈஹல்யகோஹ இத்யஸ்ய ப்ரவ்ருத்திஹ ந பவதி சோ தேர் இஸ் நோ ஈஹல்யகோஹ And there is ghvasoredhav abhyasa lopascha. How pare etvam abhyasa lopascha bhavati ubhayohu samanam. So the only difference between dadati and dadhati is the dadhastathoshcha. When followed by takara, thakara, sakara or dhva, the dha of dadhati, the abhyasasya, dakarasya, dhakara deshaha bhavati. Okay. So we will stop here and we will continue with the Jyotyadigana in the next class. You have the other Ajanta Dhatus. And there is no class next week. Okay, so next Sunday, because I'm traveling, there is no class. The next class will be on 1st November. Any questions? ஏனாட்சர சமாம்னாயம் அதிகம்ய மகேஸ்வராத் கிருத்தம் வியாகரணம் ப்ரோக்தம் தஸ்மை பாணினயே நமஹ வாக்கியகாரம் வரருச்சிம் பாஷ்யகாரம் பதஞ்சலிம் பாணினிம் சூத்திரகாரம் ச பிரணதோஸ்மி முனித்ரயம்